ओके, अद्यतन सुभाषितम् अस्ति, कः पठति?
अहं पठति.
अस्तु, पठतु रिया भगिनी.
मतेपि
गतेपि
गतेपि सारी गतेपि व्यसि ग्राहयसि वयसि ग्राह
ग्राह्या
ग्राह्या विद्या ग्राह्या
ह्या ह्या
ह्या ओके सारी ग्राह्या विद्यास्वार्थमने
सर्वात्मने
बुद्धेः
यद्यापि
सारी इट्स वेरि स्माल् फर् मी यद्यापि स्यान् फलदा सुलभा जन्मनि.
अस्तु, उत्तमम् उत्तमं भगिनि. ओके, अहमपि अहम् एव पदच्छेदं पठामि. गतः प्लस् अपि इवन् इन् द पास्ट् वयसि एज् ग्राह्यः टु बि लर्न्ड् विद्या इस् लर्निङ्ग् और् नालेज् एन् सर्वात्मने इस् फुल्लि बुद्धैः इस् लर्न् पीपल् एन् एन् यद्यापि मीन्स् आल् दो and then syaha na not that phala phalada is fruitful sulabha is easily acquired and saha anya janmani means another birth. Okay, so this subhashitam means that it could, even if it's later on in your life, you should still attempt to learn new knowledge, because like our Hindu religion says, it will be helpful in the next birth. Okay, prashnani santi va, prashnam asti va. Astu
bagini, okay. can I see the meaning, English meaning?
Yes. Okay, can I move on, Bhagini?
Yes.
Okay. Astu, adyatana patyakrama asti, grihapatham pashyamaha, tadanantaram punasmaranam pashyamaha, tadanantaram vikrama vetalashcha katha asti, antimam vibhakti vallari asti. ओके, अस्तु, इदानीं गृहपाठं पश्यामः एकनिमेषम्. ओके, सो केचन निमेषानि ददामि. ऐ गिव् ए फ्यू मिनिट्स् टु लुक् ओवर् दिस् एण्ड् ऐ विल् गो ओवर् द आन्सर्. अस्तु, इतोपि इतोपि समयः आवश्यकं वा? Do we need more time?
No.
Okay, अस्तु. Okay, प्रथममस्ति बालकः मधुरं रोचते. बालकः किं भवति?
बालकाय.
बालकाय उत्तमम् उत्तमम्. चर्चा प्रश्नं कल्पते.
चर्चा प्रश्नाय कल्पते.
चर्चा प्रश्नाय कल्पते.
What is the meaning of this? What is the meaning of this sentence?
So the discussion leads to questions.
Okay. Yeah, I had hard time understanding this.
Balakaya, what is madhuram? Is sweet, right?
Yes.
So the boy likes the sweet. Balakaha madhuram rochate,
wrong? Yep. When you use rochate, you use chaturthi vibhakti balakaya. When you use rochate.
Prathama vibhakti balakaha madhuram rochate. Why is it chaturthi vibhakti?
Remember when we had that discussion with if Atmanipade is like passive voice?
Yeah.
So like that, you use balakaya madhuram rochate. So whenever there's rochate, you use chaturthi vibhakti.
What does it mean?
So, it means the boy likes sweets, but if you say in passive voice, you can say the sweet is liked by the boy or something.
Sweetness is preferred by the boy or something like that.
Yep.
Bhagini, one doubt I have, the second one, charcha prashnaya kalpate is what you said. It could also be charcha prashnat kalpate. Discussion arises from questions. Is that incorrect to say prashnat kalpate?
The discussion leads to questions.
Discussion leads to questions. But if you say prashnat, is it grammatically incorrect or is it okay?
You would say, I don't know if you can use Panchami Bhakti for that. Because, okay, then if you do, then the charcha would become
Krishna is the first and charcha is later. Yeah, but when you are saying
charcha is first and then prashna is later.
Okay, so that's why it is prashnaya. Okay, got it.
Yes. Correct. Okay. Govindaha Gayatri Krudhyati.
Govindaha Gayatri Krudhyati.
Uttamam. Govindaha Gayatri Krudhyati. Uttamam.
What is Krudhyati? Okay.
To be angry at.
Okay.
So this is Gayatri, so it becomes towards this Chaturthi Vibhakti, right?
Yes. Correct.
Govinda was angry at Gayatri.
Okay. Astu. Bhavati tasmai kim dattavati?
What did you give him?
Very good. Very good. What did you give him? Okay. So tasmai, what is tasmai in Prathama Vibhakti?
Saha.
Saha. Uttamam. Saha. उत्तमम्. ओके, तदनन्तरं तस्यै रोटिका रोचते.
She likes roti.
Very good.
To her.
She likes roti. Yes. Chatuti again because there's rochate. Okay. तस्यै प्रथमा विभक्ति किम्?
सा.
उत्तमम्. ओके, तदनन्तरं he far away does not like math.
Tasmai ganitam na rochate.
Uttam. Tasmai ganitam na rochate. and then you are buying clothes for us.
Bhavan asmabhyah vastrani kreshyati.
Asmabhyam vastrani krinati.
Bhavan na, it has to be
bhavan eva. Bhavan asmabhyam vastrani krinati.
Kridanti, right?
Kridanti.
Oh, it's buying, not giving, okay.
Or dadati, kimapi.
Yeah, if it was dadati, then it would be giving, then it would be different.
Just the meaning would be different. But if buying, then kridanti is fine.
So for us... So,
but if dadati or datavan, datavati, then, then we need not be chaturthi.
You can use chaturthi, okay. You can use chaturthi for this one because it's for us.
Asmabhyam, right? Chaturthi bhavati.
Yes, asmabhyam.
So what is the right translation?
You are buying clothes for us.
No, but it's a substitute. So
bhavan asmabhyam vastrani krinati.
Asmabhyam, not asmabhyam, right? Asmabhyam.
Yes, asmabhyam.
Vastrani krinati.
Correct. Okay, next one. She far away.
Bhagini.
Astu, Bhagini.
Why is it vastrani? Plural of
clothes. Yes.
Clothes.
Vastra.
Napumsakalingam.
Oh, yes. Is it napumsakalingam? Okay, I thought it's pulling a sabda. All right.
Okay, next one. She far away.
Pustakam dadati.
Gave him the book.
Sa
tasmai pustakam dattavati. Uttam. Sa and then tasmai. Tasmai chaturthi vibhakti asti.
So tasmai is to him.
Yes. Okay. Tanantaram, sister gave modakam to her.
Bhagini etasyai modakam dattavati.
Uttamam. Bhagini tasyai modakam dattavati.
Nearby etasyai.
Etasyai modakam dattavati. Etasyai. Okay. Last one. We go to his faraway house for his cooking. Kinchit kathinam asti.
Vayam tasya gruham tasmai pachanartham gacchamah.
Yes. Vayam tasya gruham tasmai pachanat gacchamah.
Okay. Vayam tasya gruham tasya pachanaya gacchamah. So pachanartham, you can say pachanartham or pachanaya for chaturthi vibhakti.
It's not pachakaya, Bhagini. Pachakaya.
No.
Okay.
So, is pachanartham or tasmai pachanartham? Tasya grihe. Yeah, pachanartham is also fine. Yes, tasya grihe. Tasya graham. To his house.
Tasmai pachanartham gacchamaha.
Yes.
So, Bhagini, one last time, can we have the right translation?
We go to his house for his cooking. I mean,
in Sanskrit, English is given.
Asta. Oh, vayam tasya gruham tasya pachanaya gacchamaha.
Tasya tasmai pachanaya.
Tasya pachanaya gacchamah. His cooking. Tasya is shashti vibhakti.
Vayam tasya gruham tasmai pachanartham gacchamah.
Tasya pachanartham. Yes.
Vayam tasya gruham tasya pachanartham gacchamah. So there is no chaturthi vibhakti here.
the chaturthi vibhakti is the pachanartham.
Okay, pachanartham. Okay, dhanyavada.
Pachanartham, ma?
Pachanartham, pachanaya, they mean the same thing.
Okay.
अस्तु ओके इतोपि प्रश्नमस्ति वा एनी मोर क्वेश्चन ओके ओके अस्तु इदानीं पुनःस्मरणं करिष्यामः एकनिमेषम् म्यूट् मध्ये स्थापयतु कृपया ओके सो द पुनःस्मरणम् इस् बेस्ड् आन् द सर्वनामपदानि सो दिस् इस् अ टेबल् देट् यु शुड् हेव् शुड् बि इन् युर् परिशिष्टं टेबल् ओर् मे बि इन् द विभक्ति Oh, we took notes on it in the Vibhakti Vallari. But this is the Sarvanam Padani for Chaturthi Vibhakti. So, we know that Saha becomes Tasmai in Ekavachanam. And Bahuvachanam, Tebhyaha. Sa becomes Tasyai, Tabhyaha. Tat becomes Tasmai, Tebhyaha. Bhavati becomes Bhavatyai, Bhavatibhyaha. Bhavan becomes Bhavate and then Bhavadbhyah. Okay. And then the questions are the same way. Okay. Prashnam Kutrapi Asiva, are there any questions?
No, Bhagini, one question.
Yes.
Not more. So here we can also add the word kaha and yaha.
Kaha is added in the last column. Kasmai kebhyaha kasyai ka bhihi. That's kaha and ka in kim in chaturthi vibhakti.
Okay, you've added it there. And yaha, yeah. And what I noticed when I was practicing is, kaha is in English, so if you say kaha, it is who, and in English, yaha is also you, who, yaha is also you, kaha is also you, but if you say it in our native languages, that is when the difference comes, like kaha is kaun in Hindi, and yaha is jo in Hindi, who, so I was just pointing out that one.
Okay, yes, it's much more easier to translate in your native language. Okay, astu. Okay, tatra punasmara namasti. I'll give a few minutes and then we will go over.
Mahodaya, yaha means he who, yeah? Kaha is who, yaha is he who.
No, yaha, no, in Hindi. Kaha is on, yaha is jo.
Jo, yes.
Jisne kiya tha ye sab, or, you know, it is, both are who, in English.
That's what I'm saying, yaha is he who.
Okay.
Yaha is he who reads daily or practices, you know, will be perfect or will be perfect in his skill.
Yes, yes, bilkul, yes.
He who.
Yes, I agree. Makes sense.
ओके अस्तु करिष्यामः. रामः एषा उपयानं यच्छति. एषा किं भवति? एतस्यै. एतस्यै उत्तमम् उत्तमम्. रामा गिव्स् हर् ए गिफ्ट्. एतस्यै. भवती मधुरम् इच्छति. उत्तमं. भवत्यै मधुरम् इच्छति. अहं सः ईर्ष्यति. अहं तस्मै ईर्ष्यति. उत्तमम् उत्तमम्. ओके ओके अस्तु. सो नेक्स्ट् वन् इस् कृष्णः इस् एङ्ग्री एट् यु.
कृष्णः भवत्यै
भवते.
ओके कृष्णः भवत्यै क्रुध्यति अथवा भवान् अस्ति चेत् भवते. भवते उत्तमम्. ओके शी लैक्स् होम्वर्क्. तस्यै गृहपाठं रोचते. वी लैक् संस्कृत.
वयं संस्कृतं रोचते.
चतुर्विभक्ति. अस्मभ्यं संस्कृतं रोचते. ओके उत्तमम्.
अस्मभ्यं हौ डिड् इट् बिकम् चतुर्थी टु लैक्?
बिकास् रोचते.
ओके रोचते. वयं इच्छामः आल्सो वी केन् से रैट्?
Yes.
संस्कृतम् इच्छामः.
Correct.
Then we just go.
Okay, अस्तु. So, if... एकनिमेषम्. Okay. So, we finished the second page. So, now we are on the third page. Okay. ओके कः पठति?
अहं पठामि वा?
ऐ केन् रीड्.
ओके एमरा महोदय भवान् प्रथमं पठतु तदनन्तरं.
राज्ञी.
सो विक्रमसेनः अण्ड् देन् आफ्टर् दट्.
ओके विक्रमसेनः किमपि निर्णेतुं न शक्तवान्. सः स्वामात्यानामपि अभिप्रायं स्वीकृतवान् किन्तु न कोऽपि तस्य प्रश्नं निर्दिष्टसमाधानेन तमतोषयत्.
ओके उत्तमं धन्यवादः. सो विक्रमसेनः राजा नाम अस्ति. किमपि निर्णेतुं न शक्तवान्. निर्णेतुम् इत्युक्ते किम्?
टु
गिव् ए डिसिशन्. निर्णेतुं रूपं किं? तुमुनन्तं रूपम्. उत्तमं. न शक्तवान्. शक्तवान् भूतकालमस्ति. आम् उत्तमं. शक्तवान् भूतकालमस्ति. बहुवचनं. शक्तवान्
why king is single this thing, no? Why is it bahuvachanam?
Because he has many people, right? He has all the ministers.
No, but king is unable to make the decision, not the ministers. I think it is singular.
It is singular, Bhagini. Likhitavan, shaktavan.
Okay.
Yeah, shaktavan means only one only, right? Singular.
एकवचनम् एकवचनमेव एकवचनं क्षम्यताम्. ओके यस् एकवचनं. सः स्वमात्यानामपि अभिप्रायं स्वीकृतवान्. ओके यस् एकवचनमेव. सः स्व अमात्यानामपि अभिप्रायं स्वीकृतवान् सो द नेक्स्ट् द स्वमात्यानामपि इस् मतु वर्ड्स् स्व अमात्यानाम् अपि सो
त्रिवर्ड्स्
यस् सो स्व इस् हिस् ओन् अमात्यानाम् इस् अमङ्ग् हिस् मिनिस्टर्स् अपि अभिप्रायं स्वीकृतवान् सो अभिप्रायम् इत्युक्ते किम्
are their thinking
opinion
very good and then swikritavan itikte
he took their opinion
very good kintu na kopi tasya prashnam nirdushta samadhanena tamoshayat tamatoshayat सो किन्तु बट् न कोऽपि तस्य प्रश्नं तस्य विभक्ति किं षष्टि तस्य प्रश्नं निर्दुष्टसमाधानेन सो निर्दुष्टम् इत्युक्ते किं
डेफिनेट्
डिसिशन् निर्दुष्टसमाधानेन मीन्स् अ डेफिनेट् डिसिशन् समतोषयत् सो तं प्लस् अतोषयत् यस् कन्क्लूड् ओके सो तम् इस् हिम् अतोषयत् सो तं विभक्ति किं द्वितीया विभक्ति सः अनन्तम् उत्तमम् ओके शिला भगिनी
किमपि निश्चेतुं शक्नुवन् सः स्वपुत्रौ आहूय इत्थमकथयत् प्रियपुत्रौ युवां द्वावपि शरणमासपर्यन्तं राज्यं परितः पर्यटनार्थ प्रेषयितुमिच्छामि समये अस्मिन् अस्माकं प्रतिवेशिराज्यानामपि परिशीलनं भवतु तदनु मत्सविधे युवयोः अभिप्रायान् प्रकटयताम् इति तौ पितुराज्ञाम् अङ्गीकृत्य पर्यटनाय प्रस्थितवन्तौ मातरौ च नत्वा युवराजोचितेन परिवारेण ससैन्यं प्रस्थितौ
उत्तमम् ओके किमपि निश्चेतुम् अशक् नुवन् सः स्वपुत्रौ आहूय इत्थमकथयत् सो सो सिन्स्
नो वन् सन् हि काल्ड् बोथ् आफ् हिज् सन् राइट
यस् करेक्ट् स्वपुत्रौ आहूय इत्थमकथयत् सो आहूय रूपं किं
ल्यबन्तरूपम्
ओके लेबन्तरूपम् इत्थम् अकथयत् इत्थं कथयत् प्रियपुत्रौ युवां द्वावपि षण्मासपर्यन्तं सो युवाम् इस् त्वं बट् फोर् टु पीपल् यु बोत् द्वावपि षण्मासपर्यन्तं षण्मास इत्युक्ते किं सिक्स् मन्त्स् सो सिक्स् फोर् सिक्स् मन्त्स् पर्यन्तं राज्यं परितः पर्यटनार्थं प्रेषयितुम् इच्छामि परितः इत्युक्ते किं
सरौण्डिङ्ग्
पर्यटनार्थं प्रेषयितुम् इच्छामि पर्यटनार्थम् इत्युक्ते किं to travel, roam, tour, kimapi. Preshayitum ichchami. Preshayitum tumanantam प्रेषयितुम् इत्युक्ते किम् आम् आम् इच्छामि ओके समये समयः प्लस् अस्मिन् समयेऽस्मिन् अस्माकं प्रतिवेशिराज्यानामपि परिशीलनं भवतु सो वन् अस् देर् इस् टैम् और् वन् देर् इस् टैम् what do you say while he explored take details or look closely at all the examine our kingdom uttama examine our kingdom is basically what he is saying parishilanam bhavatu okay tadanu matta vidhe युवयोः अभिप्रायान् प्रकटयताम् सो आफ्टर् देट् टेल् मी योर् थिङ्किङ्ग् योर् ओपिनियन् कन्क्लूड् ओर् टेल् मी योर् ओपिनियन् बेसिकलि
वाट्स्
योर् बेस्ट् गेस्
समये अस्मिन् इस् समयेऽस्मिन् रैट्
yes samayah plus asmin or
asmin dine is one or how what is asmin samayah asmin
this today or now
in the time
plus asmin now
in the time
in sometime
in the time given अस्माकं प्रतिवेशिराज्यानमपि परिशीलनं भवतु इन् द टैम् गिविन् गेट् डीटेल्स्
अस्माकम् इस् टु षष्टि अस्माकम्
यस् आवर् ओके सो अन् देन् ही सेस् टेल् मी युर् ओपिनियन् about the kingdom tau pitu rajnyam angikritya so listening to his the king his and their father angikritya yes
orders
accepting the order paryatanaya prastitavanto paryatanaya vibhakti kim
chaturthi
चतुर्थी प्रस्थितवन्तो सो दे लेफ्ट् मातरौ च नत्वा युवराजोचितेन परिवारेण ससैन्यं प्रस्थितौ सो द मदर्स् आल्सो केम् एण्ड् दे लेफ्ट् टु चोर् सो नत्वा रूपं किं
स्वान्तरूपम्
स्वान्तरूपं नत्वा एकवचने किं न एकवचने आम् एकवचने किं
नमः
न ओ आम् आम् आं नमः नमः नमति 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 ओके षण्मासानन्तरं तौ प्रत्यागतौ सो दिस् वन्स् ईज़ी वन् आफ्टर् सिक्स् मन्त्स् दे केम् बेक् प्रत्यागतौ राजा विक्रमसेनः तयोरनुभवान् अपृच्छत् सो द किङ्ग् आस्क् फोर् देर् ओपिनियन् ओ वि डिड् नाट् रीड् दट् पार्ट् यत् क्षम्यताम् Who wants to read the next paragraph?
Kopi nas chet na pa.
I will go, Vagini.
Yeah,
okay. Okay, astu karatu Gopal Mahoday.
Shanmasa anantaram tau pratyagatau Raja Vikramasenah teyor anubhavan अपृच्छत् ज्येष्ठः जयतेजः इत्थमावदत् अहमस्माकं राज्यस्य सर्वेषु कोणेषु पर्यटितवान् अस्मत् प्रतिवेशी वैकन्तिकाराज्यमपि मया दृष्टम् अस्माकं राज्यं सर्वविधैः सम्पद्भिः समृद्धमस्ति अत्रत्याः प्रजाः भवतः शासनेन सन्तृप्ताः अस्माकं राज्येन सह वैकन्तिकाराज्यस्य तुलना सर्वथा न भवति ते अस्माकं पालने गुणदोषान् विवेचयन्तः सन्ति तथा शासने अस्माननुसर्तुं ते प्रयतन्ते तेनैव अस्माकं मन्यत्वं प्रकटीभवति इति.
ओके, उत्तमम्. ओके, ज्येष्ठः जयतेजः इत्थम् अवदत् अहम् अस्माकं राज्यस्य सर्वेषु कोणेषु पर्यटितवान्
जयतेजः स्पोक् लैक् दिस् वि आल् वेण्ट् टु एव्री कार्नर् आफ् युवर् किङ्ग्डम् अण्ड् वि हव् सर्वेड्
अवर्
किङ्ग्डम् सारि अस्माकम् अस्माकम् ओके अवर् किङ्ग्डम् राज्यस्य सर्वेषु कोणेषु पर्यटितवन्तः यस् सर्वेड् एव्रि कार्नर् आफ् अवर् किङ्ग्डम् अहम् इस् ऐ अस्माकम् इस् अवर्
ओके अने अस्मत् प्रतिवेशी वैकन्तिकाराज्यमपि मया दृष्टम्
अवर् प्रतिवेशी इस् कौण्टर् पार्ट् आर् एनिमी वैकन्तिकाराज्यमपि अण्ड् ऐ हव् आल्सो सर्वेड् अवर् एनिमीस् किङ्ग्डम्
यस् द नेम् इस् वैकन्तिकाराज्यम् वैकन्तिकाराज्यम् अहम् अस्माकम् अहम् अस्माकम् ओके अस्माकं राज्यं सर्वविधैः सम्पद्भिः समृद्धम् अस्ति
अवर् किङ्ग्डम् इस् इन् आल् आस्पेक्ट्स् वेरि सम्पद्भिः मीन्स् एण्डोड् वित् रिच्नेस् अण्ड् समृद्धि समृद्धम् अस्ति मीन्स् फुल्ली सेटिस्फैड् आर् इट् इस् वेल् एण्डोड्
उत्तमं सो we are very prosperous and wealthy iti asti atratyah prajah bhavatah shasanena santruptah
atra is here I don't know what yah is but prajah bhavatah shasanena we prajah people bhavatah with your shasanena means with your the way you rule santruptah This plural of, they are all satisfied.
Uttama, Uttama.
atra plus satya, what is satya?
Atratyaha means the people of this place.
Is it atra plus satya or it is atratya is a new word by itself?
No, no, atratyaha word by itself.
Okay.
Then asmakam rajena saha vaikantika rajasya tulana sarvatha na bhavati. So comparing our rajyam, comparing our rajyam to vaikantika, we have everything, we are fulfilled iti. Te asmakam palane
sarvatha na bhavati means, what does that mean, sarva?
We cannot compare.
No comparison or what? What
is it? Comparable.
Na bhavati. Comparison.
Not comparable.
Na bhavati. It doesn't occur. Because we are far superior to Vaikantika. So there is no question of comparison. So that is na bhavati is, does not happen.
Yes.
One question. Again, I am sort of stuck at that. Asmat is bahuvachanam of panchami, right?
Yes. Correct.
Okay, so asmat prativeshi, what does that mean?
Our neighbor. Asmat,
our neighbor.
No, but the panch, how does that, panchami is from, right? From our neighbor?
So, like from place here to your neighbor.
Huh?
It indicates place, panchami.
Yeah, so from this place or neighboring?
Oh, okay, got it. Okay, yes.
Okay. Where were we? Asmakam rajen, asmakam raj, okay, sarvatha navati. Te asmakam palane guna doshan vivechayantah santi. So, they are trying to find, looking closely to find mistakes in our kingdom. Tatha शासने अस्मानुसार्तुं ते प्रयतन्ते. So that's also why they are trying to copy our rajyam. Te naiv asmakam manyatvam prakati bhavati iti. That is my thinking, or that is
natural.
That is what I saw.
Asmanam means what? Asman anusantam, santum. What does
that Asman mean? anusartum. Hmm. To copy us. Hmm.
Follow?
Yes. To follow or copy like that.
Okay.
Tenaiva? Tenaiva is what?
Te plus aiva.
They
also.
Tena eva.
Tena plus eva.
Tena eva. ओके अस्तु तदनन्तरम् अन्तिमं पेरेग्राफ् कः
पठति राजा विक्रमसेनः कनिष्ठं पुत्रं पुत्रं पश्यत् तदा मयूरध्वजः वक्तुमारभत भ्रात्रा उक्तं यदस्माकं राज्यं सर्वविधसम्पद्भिः समाभि वृद्धमिति किन्तु अहं भावयामि यदेकः राजा स्वस्य सफलताविषये कदापि सन्तृप्तः न भवेदिति.
ओके, उत्तमम्. ओके, राजा विक्रमसेनः कनिष्ठं पुत्रं पश्यत्. सो ही लुक्ड एट हिज यस यंगर सन् अपश्यत् ही लुक्ड एट हिज यंगर सन् त तदा मयूरध्वजः विच् इस् हिस् नेम् वक्तुम् आरभत हि स्टार्टेड् स्पीकिङ्ग् हि सेड् भ्रात्रा उक्तं यदस्माकं यत् अस्माकं यत् प्लस् अस्माकं राज्यं सर्वविधसम्पद्भिः समभिवृद्धम् इति. सो हीस् जस्ट् रिपीटिङ्ग् वाट् हिस् ब्रदर् सेट्. सो हि सेङ्ग् हिस् ब्रदर् सेट् देट् एव्रिथिङ्ग् इस् फुल्फिल्ड् इन् दिस् किङ्ग्डम्. बट् मयूरध्वजः सेस् किन्तु अहं भावयामि यदेकः राजा स्वस्य सफलताविषये कदापि सन्तुष्टः न भवेदिति. बट् हि थिङ्क्स् देट् बेसिक्लि द आपोसिट् देट् वी आर् नाट् फुल्फिल्ड् एण्ड् like a king should not be, the king should always look for ways to make the kingdom better,
like should that. Not be satisfied.
Yes, should not be satisfied.
He would like to enlarge or expand his kingdom. He will not be satisfied with whatever he is having.
Ah, tadeva. Okay, kutrapi prashnam asti va.
What is manyatvam?
Sanskrit. Spoken as a state, superiority.
Tena eva asmakam.
Worthiness. Worthiness.
Agreement, agreeing, something. Yeah. Accepting.
I think it is recognition.
Yeah, something like recognition. Okay, I thought manyaha is called like my chintanam. Okay. Something like that.
Worthiness.
So, okay. So he is agreeing and he is saying
another one is respectability is also there.
Yep. Mm-hmm. So he's accepting and saying this is our kingdom. This is what I observed in the kingdom. Okay. Astu itopi prashnam asti va. ओके अस्तु इदानीं विभक्तिवल्लरी करिष्यामः. गतसप्ताहे वयं किं कृतवन्तः? व्हाट डिड वी डू लास्ट वीक?
चतुर्थी विभक्ति
सर्वनामपदानि. ओके, सो वी वेंट ओवर एक्टिविटी नंबर 6. So we can go over that again. Is that okay, or should we move on?
I think we'll quickly revise.
Okay, we'll go over quickly. Okay, so tatra asti krishnah ekasmai kinchit darshayati anyasmai anyat darshayati saha kasmai kim darshayati iti adah nirdishtam asti तदाधारेण सर्वनामशब्दानां चतुर्थीविभक्तिं योजयन्तः वाक्यानि रचयत. सो यूसिङ्ग् द वर्ड्स् बिलो एण्ड् चतुर्थीविभक्ति मेक् द सेण्टेन्सस् इति अस्ति. उदाहरणमस्ति सः चित्रम् एण्ड् एषः पत्रिकां. किं भवति? कृष्णः तस्मै चित्रं दर्शयति एतस्मै पत्रिकां दर्शयति. Okay, so Dvitiyam, Mohan Mahodaya Karati Va, Dvitiyam? The second one?
Okay.
Krishna. Can you scroll down again?
Screen you have to show.
Yeah.
Okay. This one, Sa, right? Sa Shatika, Esha Antaharaha. That's it, right?
Yeah.
Yeah.
Shatika is a sari, right?
Yeah.
Yes. So, Sa become Tasyai Shatika
Shatikam.
Shatika.
Shatikam. Shatikam. Tasyai Shatikam
Krishna.
Krishnah tasyai shatikam
darshayati
darshayati
krishnah shatikam darshayati
uttamam and then
krishnah esha right
yes
एतस्यै कण्ठहारं दर्शयति
उत्तमम् उत्तमम् ओके तृतीयं चित्रा भगिनी
कृष्णः भवते ग्रामं दर्शयति भवत्यै नगरं दर्शयति
उत्तमं भवते ग्रामं दर्शयति भवत्यै नगरं दर्शयति ओके तदनन्तरं एमिरा महोदय
कृष्णः एतस्यै यक्षगानं दर्शयति
न न एते बहुवचनमस्ति
ओ एतेभ्यै
एतेभ्यः
एतेभ्यः यक्षगानं दर्शयति तेभ्यः चलनचित्रं दर्शयति
उत्तमम् उत्तमम् एतेभ्यः तेभ्यः ओके नरसिंहमहोदय
कृष्णः एताभ्यः नृत्यं दर्शयति ताभ्यः नाटकं दर्शयति
सम्यक् ओके रिया भगिनी रिया भगिनी अस्ति वा ओके अस्तु शीला भगिनी
नम्बर् सिक्स् रैट्
यस्
कृष्ण भवत् भवद्भ्यः विद्यालयं चित्रं दर्शयति भवतीभ्यः कार्यालयं दर्शयति
ओके समीचीनं तदनन्तरं सूक्ष्मा भगिनी
कृष्णः मह्यं चित्रकथापुस्तकं दर्शयति अस्मभ्यं क्रीडनकानि दर्शयति
सम्यक् सम्यक् ओके कुत्रापि प्रश्नमस्ति वा
वाट् इस् क्रीडनकं
टोय्स्
टोय् ओके धन्यवादः
ओके
Do you have more practice on this? Can we do more practice for the Sarvanama Padam?
Sure, I will give it in the homework sentences.
Yeah, we need a lot of homework, I agree. For the Sarvanama Padam, they're most critical, I think.
Yes.
Yes.
Okay, no worries. I will give it in the Gahapatam. Gahapate Dadam. Okay. Tanantaram Asti... विशेषपदानि अस्ति ओके सो इकारान्तः उकारान्तः ऋकारान्तः पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्ग अस्ति ओके इकारान्तः हरिशब्दः किं भवति पुल्लिङ्गः हरये हरिभ्यः उत्तमं गुरुशब्दः
गुरवे
गुरुभ्यः पितृशब्दः पित्रे पितृभ्यः कर्तृशब्दः कर्त्रे कर्तृभ्यः स्त्रीलिङ्गे मतिः शब्दः मत्यै मतिभ्यः धेनुः किं भवति धेनवे धेनुभ्यः मातृशब्दः मात्रे मातृभ्यः दधि शब्दः दध्ने दधिभ्यः मधुशब्दः मधुने मधुभ्यः उत्तमम् ओके उदाहरणमस्ति शम्भुः अस्ति चेत् शम्भवे शम्भुभ्यः
शम्भुः
आम्
रिकारान्त नपुंसकलिङ्ग देयर इज अ फिल अप द ब्लैंक एनी न्यू वर्ड देयर
इन द अबव नो देयर इज नो रिकारान्त
देयर इज नो वर्ड ओके
दैट इज नॉट एप्लीकेबल नॉट द फिल इन द ब्लैंक
आई थॉट
दे बोथ लुक द सेम फिल इन द ब्लैंक एंड द ओके सो शंभुहु उकारान्तः पुल्लिङ्ग अस्ति शम्भवे शम्भुभ्यः ओके प्रश्नमस्ति वा कुत्रापि न ओके आम् पुल्लिङ्ग उकारान्तः पुल्लिङ्गः अस्तु गोपाल् महोदय प्रथमं करोति वा कविः
शम्भवे शम्भुभ्यः कविः कवये अण्ड् कवयेभ्यः कविभ्यः
उत्तमं कवये कविभ्यः प्रतिमा भगिनी
बन्धुसु बन्धवे बन्धुभ्यः
उत्तमं बन्धवे बन्धुभ्यः ओके तदनन्तरं मोहन् महोदय
अवधि इकारान्त रैट् हरि अवधि वन् अवधिना और्
अवधिः लिङ्गं किम्
अवधये
आम् अवधये
अवधये एण्ड् अवधिभ्यः
अवधिभ्यः अवधिभ्यः अवधये अवधिभ्यः
अवधये अवधिभ्यः लैक् हरिः अवधि
यस्
भगिनि अवधि मीन्स् पीरियड्
यस् अवधि अस्तु चित्रा भगिनी
भ्राता भ्रात्रे भ्रातृभ्यः
उत्तमं भ्राते भ्रात्रे भ्रातृभ्यः अमिरा महोदय
वक्ता दिस् इस् स्त्रीलिङ्गः
न न वक्ता पुल्लिङ्गं
पुल्लिङ्गं देन् वक्तव्ये वक्ते वक्तिभ्यः
पुनः पश्यतु
जस्ट् लैक्
ऋकारान्तपुल्लिङ्गः
ओके ओके वक्त्रे वक्तृभ्यः
उत्तमं वक्त्रे वक्तृभ्यः सम्यक् ओके नमस्ते महोदय
सुमतिः इट् इस् स्त्रीलिङ्ग सो सुमत्यै सुमतिभ्यः
उत्तमं सुमत्यै सुमतिभ्यः रिया भगिनी अस्ति वा ओके शीला भगिनी
अभिरुचि अभिरुचिः स्त्रीलिङ्गशब्दः अभिरुच्यै अभिरुचिभ्यः
उत्तमम् अभिरुच्यै अभिरुचिभ्यः अभिरुच्यै अभिरुचिभ्यः ओके सूक्ष्मा भगिनी
परशुः सो परशवे एण्ड् परशुभ्यः
उत्तमं परशवे परशुभ्यः परशवे परशुभ्यः अस्तु गोपाल् महोदय
याता यातायै
याता ऋकारान्त अस्ति ऋकारान्त स्त्रीलिङ्गः
यात्रे यातृभ्यः
आम् यात्रे यातृभ्यः उत्तमम्
What does yata mean?
Sister-in-law.
Sister-in-law.
सूक्तिः प्रतिमा भगिनी
सुमतिः सुमत्यै
सूक्तिः
सुक्तिः
सूक्तिः
सुक्तिः सुक्तये सुक्तै सुक्तिभ्यः
ओके सूक्त्यै सूक्तिभ्यः सूक्त्यै सूक्तिभ्यः ओके तदनन्तरमस्ति आवरणे दत्तानां शब्दानां चतुर्थ्यन्तेन रूपेण रिक्तस्थलं पूरयत सो फिल् इन् द ब्लेङ्क्स् उदाहरणमस्ति मुरारिः अस्ति मुरारये नमः ओके मोहन् महोदय प्रथमं करोति वा
ओके उदाहरणं मुरये मुररिः नामः शनिः स्त्रीलिङ्ग
पुल्लिङ्ग
लार्ड् सैटर्न् पुल्लिङ्ग
ओके सो शनये शनये नामः
शनये
नमः
शनये नमः उत्तमं चित्रा भगिनी
राहवे नमः
राहवे नमः एमिरा महोदय एमिरा महोदय अस्ति वा
I didn't switch it on the mic. केतवे नमः
केतवे नमः उत्तमं
pullinga ketu is also pullinga
yes
all of them
yes pullinga ukarantah nase modya
savita is pullinga savitre namaha
savitre namaha ke sukshma bagini
dhenave trunam rochate
धेनवे तृणं रोचते उत्तमं गोपाल् महोदय
मात्रे पूजाविधिः रोचते
मात्रे पूजाविधिः रोचते. प्रथमा भगिनी,
द्वितीया विभक्ति, इति द्वितीया विभक्ति पूजाविधिः.
No, it would be, it's almost like the subject of the sentence.
Oh.
Yeah. Okay, Pratima Bhagini?
Yes. Vasumatyai Nartanam Rochate.
Uttama. Vasumatyai Nartanam Rochate. Rochate. Punaha Mohan Modiyam?
Okay. Dehita, Strilinga.
Duhita.
Okay, Duhita. Duhita, Duhitayai Shishupalanam Rochate.
Is it Rukarantapuni, Srilingam?
Duhita Rukarataha Srilingam. Duhita Kimbavati Punaha.
Oh, Rukaranta Srilingam? Okay, then Rukarantapu is Duhite.
Duhitre. तदनन्तरं बहुवचने बहुवचने अस्ति प्राध्यापकः वक्तृभ्यः गौरवधनं दत्तवान् अस्तु वा. ओके, बहुवचनमस्ति. चित्रा भगिनी करोति वा?
राघवः अतिथिभ्यः स्मरणी काम दत्तवान्. राघवः अतिथिभ्यः स्मरणिकां दत्तवान्.
उत्तमम्, अतिथिभ्यः. ओके, अमीरा महोदय.
अर्चकः सेवाकर्तृभ्यं प्रसादं दत्तवान्.
सेवा किं भवति? सेवाकर्तृभ्यः
प्रसादं दत्तवान्.
उत्तमम्, अर्चकः सेवाकर्तृभ्यः प्रसादं दत्तवान्.
सेवाकर्ता इस् ऋकारान्त पुल्लिङ्ग.
आम्, ऋकारान्त पुल्लिङ्गः. ओके, नमस्ते महोदय.
शिष्यः गुरुभ्यः पद्यं दत्तवान्.
पाद्यं
दत्तवान् गुरुभ्यः.
ओके, सुषमा भगिनी.
पिता दुहितृभ्यः धनं दत्तवान्.
उत्तमं, दुहितृभ्यः धनं दत्तवान्. गोपाल महोदय.
राजा शत्रुभ्यः दण्डनं दत्तवान्.
उत्तमं, राजा शत्रुभ्यः दण्डनं दत्तवान्. तदनन्तरम् अन्तिमं. आम्, उत्तमम्. प्रथमा भगिनी.
पुत्राः मातृभ्यः सुवर्णहारं दत्तवन्तः.
उत्तमम्, उत्तमं. पुत्राः मातृभ्यः सुवर्णहारं दत्तवन्तः. ओके, अस्तु. तदेव चतुर्थी विभक्ति अस्ति. कुत्रापि प्रश्नमस्ति वा? Okay, astu. Okay.
So, chaturthi vibhakti is used whenever you are giving something. Dattam.
Yes.
Okay.
Tanakriya iti asti. Okay. Kinchit panchami vibhakti karishyamaha. Kinchit. Okay. Kaha patati suchana panchami vibhakti? Want to read the instructions?
Aham pathami bhagini.
Okay, astu, patatu.
Panchami.
विभागः यदा भवति तदा यः अवधिभूतः भवति तस्य पञ्चमी विभक्तिः भवति. उदाहरणे दीक्षात् पर्णं पतति. पञ्चम्यर्थे तः इति प्रयोगः सरलः. तः तत् इत्येतत् अव्ययम्. अतः सर्वेषु लिङ्गेषु तस्य समानं रूपम्. अभ्यासः. गोविन्दस्य गृहे कश्चन कार्यक्रमः आसीत्. कार्यक्रमार्थं विभिन्नस्थलेभ्यः विभिन्नाः जनाः आगताः. कः कुतः आगतवान् इति अध निर्दिष्टम् अस्ति. तदाधारेण वाक्यानि रचयत्.
ओके. न वदति चेत् म्यूट् मध्ये स्थापयतु. कृपया म्यूट् मध्ये स्थापयतु प्रतिमा भगिनी. ओके, धन्यवादः. ओके, सो पञ्चमी विभक्ति, लैक् वी नो इट्स् अवधिभूतः इस् फ्रम् वेर् ओर् अण्टिल्. सो उदाहरणमस्ति वृक्षात् पर्णं पतति. फ्रम् द ट्री द लीफ् फाल्स् डौन्. सो वी डिड् दिस् अ लिटल् बिट् इन् द अभ्यासपुस्तकं द मैसूरुतः बेङ्गलूरु गच्छति ओर् चेन्नैनगरं गच्छति. यस्, तदेव. ओके, अवधिभूतः इस् फ्रम्
is it separation, the leaf is separating from the tree.
Oh, from, right?
From,
yes,
right.
From.
So leaf is purnam,
parnam.
Parnam,
parnam is separating from the tree. That is why panchami vibhakti.
Correct.
Parnam is leaf then.
Okay. ओके, करिष्यामः. प्रथमं कृतवन्तः तदेव. इट्स् कृतवान् मैसूरुतः मातुलः आगतवान्. सो मैसूरु एण्ड् मातुलः बिकम्स् दट्. सो यु केन् जस्ट् एड् तः एट् द एण्ड् फोर् दिस् वन्. ओके, मोहन् महोदय द्वितीयं करोति वा?
ओके, काशी. ओके, काशी अनुजः आगतवान्. काशीतः काशीत
काशीतः
काशीतः
अनुजः
आगतवान्. काशीतः काशीतः ओर् यु केन् से पञ्चमी काश्याः काश्याः. It would be conjugated the same way. Kashi Saha. Okay. Chitra Bhagini?
Vedar Saha, Shmiri Saha, Agatavan.
Uttamam. Amira Modiyan?
Vedar Saha, Shmiri Saha.
Akritavan Saha. Madras. Madras.
Madras Saha.
मद्रास् नगरं मद्रास् नगरम् इति चिन्तयामि. नरसिंहमहोदय नरसिंहमहोदय कृपया म्यूट् मध्ये स्थापयतु.
मद्रास् नगरतः भगिनी आगतवती
आगतवान् आगतवती आगतवती उत्तमं मद्रास् नगरतः भगिनी आगतवती इदानीं नास्तु महोदय
तिरुवनन्तपुरतः अग्रजः आगतवान्
सम्यक् सुक्ष्मा भगिनी
पुणेतः भगिनेयः आगतवान्
भागिनेयः इति
अस्ति भागिनेयः आगतवन्तः
एकवचनम् इति अहं चिन्तयामिवचनम् एकवचनम् आगतवान् तदनन्तरं गोपाल् महोदय
Sorry, which one, Bhagini?
Kalakatta.
Kalakatta taha Anuja Agatavati.
Agatavati, uttamam. Pratyama, Bhagini?
Kalati taha Guruhu Agatavan.
Uttamam. मोहन महोदय
ग्रामतः पितामह आगतवान्
उत्तमं चित्रा भगिनी अन्तिमं
हैदराबादतः मातामही आगतवती
उत्तमं सम्यक् ओके प्रश्नमस्ति वा
सो या वन् थिङ्ग् सो we don't need to learn the ramat that kashi was karshyah so we can just say karshitah like gauri ikaranta strilinga panchami vibhakti is gauryah like instead of saying karshyah
so should we use the panchami vibhakti or just use the dhatu with tah
It is easy. That's my point, you know. Like
Kashi. So if it's a place, then it's easy to use with Taha. But later in the chapter, the using the actual Panchami Bhakti comes.
So this is like the trailer before.
So Taha is used only for places or it can be used for anything else also?
You can use both.
You can use both. You know how in Chaturthi Bhakti is like what is it? Like you say artham like I can't think of an example. Like Kridanatham or you can say Kridanaya. So Kridanatham, Kridanaya, they're both same meaning. Like that.
Okay, so it is Taha also.
Yes, so same thing. Just like that, you can use Taha.
Okay.
Itopi prashnam astiva? No. Okay. Astu.